इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। नवदिल्लीतः युवकेन्द्रिताः विविधाः प्रक्रमाः प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उद्घाटयिष्यन्ते। युवकौशलविकासक्षेत्रे ऐतिहासिके अस्मिन् उपक्रमे प्रधानमन्त्री देशस्य सहस्राधिकानां शासकीय औद्योगिक प्रशिक्षण संस्थानां प्रोन्नतिं कर्तुं पीएम सेतुः इत्यस्य उद्घाटनं विधास्यति। प्रधानमन्त्री बिहार राज्ये जननायक कर्पूरी ठाकुर कौशल विश्वविद्यालयमपि उद्घाटयिष्यति। येन हि उद्योग केन्द्रित पाठ्यक्रमाणां व्यवसायिक शिक्षायाश्च संवर्धनं भविष्यति। सैन्य प्रमुख जनरल उपेन्द्र द्विवेदी पाकिस्तानं प्रति निष्ठुरां सञ्चेतनां प्रख्यापितवान् यत् यदि पाकिस्तान पुनरपि नूतनस्य वैरभावस्य प्रयासं करिष्यति तर्हि तस्य दुष्परिणाम भविष्यति एव।
इस बार भारत देश पूरी तैयारी के साथ है।
दिस टाइम इंडिया इज फुली प्रिपेयर्ड एंड विल नॉट शो रिस्ट्रेंट। व्हाट वी रिस्ट्रेंट इन सिंदूर 1.0 वी विल नॉट रिस्ट्रेंट नाउ। वी विल टेक एक्शन एंड वी विल कैरी आउट मेजर्स सो सिग्निफिकेंट दैट पाकिस्तान मे हैव टू डिसाइड वेदर इट डिजर्व्स टू रिमेन ऑन द मैप ऑफ हिस्ट्री एंड ज्योग्राफी। इफ इट वॉन्ट्स टू कीप इट्स प्लेस इट मस्ट स्टॉप द स्टेट स्पॉन्सर्स ऑफ टेररिज्म।
उसका देश जो टेररिज्म को स्पॉन्सर कर रहा है उसे रोकना पड़ेगा।
सैन्य प्रमुखेन उक्तं यत् सिन्दूर इति नाम्ना विख्यातस्य सिन्दूराभियानस्य मुख्यं फलमासीत् पाकिस्तान देशे स्थितानां भयोत्पादकानां तेषां स्थलानां च विनष्टीकरणम्। भारतम् अवदत् यत् पाकिस्तान अधिकृत जम्मू कश्मीर प्रदेशे भयावहतया मानवाधिकारोल्लंघनाय पाकिस्तानस्य उत्तरदायित्वं निश्चीयते। नवदेहल्यां वार्ताहर सम्मेलने एकस्य प्रश्नस्य प्रत्युत्तरे विदेश मन्त्रालयस्य प्रवक्ता रणधीर जयस्वालः पाकिस्तान अधिकृत जम्मू कश्मीरस्य अनेकेषु क्षेत्रेषु क्रूरतायाः प्रतिवेदनानि सन्ति आगतानि इति अधोरेखितवान्। तेनोक्तं यत् निर्दोष नागरिकाणामुपरि पाकिस्तान सैनिकानां क्रूरता वरिवर्धमाना वर्तते। सः अवोचत् यत् भारतानुसारम् एतत् पाकिस्तानस्य दमनकारी दृष्टिकोणस्य स्वाभाविकं परिणामम् अस्ति तथा च एतस्य प्रदेशस्य संसाधनानां व्यवस्थित लुण्ठनमपि अस्ति इति। वायुसेनायाः प्रमुखः एयर चीफ मार्शल अमरप्रीत सिंहः अवोचत् यत् ऑपरेशन सिन्दूर इति एकेन विशिष्ट संघर्षरूपेण स्मर्यते यत्र यथार्थतया अस्माभिः स्वलक्ष्यं साधितम्। अनेन अभियानेन पाकिस्तान देशः अधोमुखीति कृतश्च नवदेहल्यां 93वां वायुसेना दिवसस्य वार्षिकोत्सवं सम्बोधयन् सः अवोचत् यत् भारतदेशः पाकिस्तानस्य अनेकान् लक्ष्यान् आक्रान्तवान्। अपि च अभियानावसरे पाकिस्तानस्य 5 युद्धविमानान्यपि नष्टीकृतानि। मुख्य निर्वाचनायुक्तः श्री ज्ञानेश कुमारः केन्द्रीय पर्यवेक्षकान् प्रति निर्देशान् अयच्छत् यत् ते राजनीतिक दलेभ्यः प्रत्याशिभ्यः मतदातृभ्यश्च परिदेवनानां निवारणार्थं पूर्णतया उपलब्धाः स्युः। बिहार राज्यस्य आगामि लोकसभा निर्वाचने अपि च कतिपयेषु राज्येषु उपनिर्वाचनेषु नियोजितान् केन्द्रीय पर्यवेक्षकान् उद्दिश्य प्रदत्ते उपोद्घाते श्रीकुमारः अवोचत् यत् निर्वाचन पर्यवेक्षकाः लोकशासनस्य दीपकाः इव भवन्ति। सः पर्यवेक्षकान् निर्दिष्टवान् यत् ते मतदान केन्द्राणि परिशीलयन्तु। मतदातृणां सुविधायै आयोगेन स्वीकृतानां प्रत्यग्रानाम् उपायानां कार्यान्वयनं सुनिश्चितं च कुर्वन्तु इति। कृषि तथा कृषक कल्याण मन्त्रिणा श्री शिवराज सिंह चौहानेन कृषि शिक्षा क्षेत्रे महत्वपूर्णः निर्णयः समुद्घोषितः। सः अवोचत् यत् कृषि विश्वविद्यालयेषु स्नातक पदवीय स्थानानां 20 प्रतिशतं भागः अखिल भारतीय प्रतियोगी परीक्षा द्वारा पूरयिष्यते। तेन समुदीरितं यत् प्रवेश परीक्षाणां सञ्चालनं एकं राष्ट्रं एका कृषि इत्यनेन भावेन भविष्यति इति वार्ताः।